अथ श्रीकनकधारास्तोत्रम् अंगं हरिफुलकभूषणमाशयन्ति भृङ्गाङ्गनीव मुकुला भरणन्तमालम् मांगल्यदास्तु मम मंगल देवतायाः मुग्धा मुहुर्विदधती वदनी मुरारिः प्रेमत्र पाप्रणिहितानि गतागतानि दिशतु सागर संभवायाः विश्वामरीन्द्र पदवी भ्रमदान दक्ष मानंद हेतुरधिकं मुरविद्विषोऽपि ईशन् निषीदतु मयि मिन्दीवरोदर सहोदर मिन्दिराया आमीलिताक्षमधिगम्य मुदा मुकुन्द मानन्द कन्दमनिमेषमनङ्गतन्त्रम् पक्ष्मनेत्रं भूत्यै भवेन् मम भुजङ्गशयाङ्गनायाः बाह्वन्तरे मधुजितश्रितकौस्तुभेया हारावलीव हरिनीलमयी विभाति कामप्रदा भगवतोऽपि कटाक्षमाला कल्याणमावहतु मे कमलालयाया कालाम्बुदालिललितोरसिकैटभारीर्धाराधरे स्फुरति या तडिदङ्गनेव मातुस्समस्त जगता महनीयमूर्तिर्भद्राणि मे दिशतु भार्गव नन्दनायाः प्राप्तं पदं प्रथमतः किल यत्प्रभावान् माङ्गल्यभाजि मधुमाथिनिमन्मथेन मय्यापते तदिह मन्थरमीक्षणार्धं मन्दालसैचमकरा लयकन्यकायाः दद्याद्दयानुपवनो द्रविणाम्बुधारा मस्मिन्न केचन विहङ्गशिशौ विषण्णे दुष्कर्म धर्ममपनीयचिराय दूरन् नारायण प्रणयिनी नयना इष्टा विशिष्टमतयोऽपि ययादयार्द्र दृष्ट्या त्रिविष्टपपदं सुलभं लभन्ते दृष्टिः प्ररुष्टकमलोदरदीप्तिरिष्टां पुष् तुष्टिं कृषीष्ट मम पुष्करवेष्टराय गीर्देवतेति गरुडध्वज सुन्दरीति शाकम्भरीति शशिशेखरवल्लभेति सृष्टिस्थिति प्रलयकेलिषु संस्थितायै तस्यै नमस्त्रिभुवनैकगुरोस्तरुण्यै श्रुत्यै नमोऽस्तु शुभकर्मफलप्रसूत्यै रत्यै नमोऽस्तु रमणीयगुणार्णवायै शक्त्यै नमोऽस्तु शतपत्रनिकेतनायै पुष्ट्यै नमोऽस्तु पुरुषोत्तमवल्लभायै नमोऽस्तु नालीकनिभाननायै नमोऽस्तु दुग्धोदधिजन्मभूत्यै नमोऽस्तु सोमामृतसोदरायै नमोऽस्तु नारायणवल्लभायै सम्पत्कराणि सकलेन्द्रियनन्दनानि साम्राज्यदानविभवानि सरोरुहाक्षि त्वद्वन्दनानि दुरिताहरणोद्यतानि मामेव मातर निशङ्कलयन्तु मान्ये यत्कटाक्षसमुपासनाविधिः सेवकस्य सकलार्थसम्पदः सन्तनोति वचनाङ्गमानसैस्त्वां मुरारिहृदयेश्वरीं भजे सरसिजनिलये सरोजहस्ते धवलतमांशुकगन्धमाल्यशोभे भगवति हरिवल्लभे मनोगे त्रिभुवनभूतिकरे प्रसीदमयम् दीर्घस्तिभिः कनककुम्भमुखावसृष्टः स्वर्वाहिनी विमलचारुजलप्लुताङ्गी प्रातर्नमामि जगताय जननीमशेष लोकाधिनाथ गृहिणी ममृताभिपुत्री कमले कमलाक्षवल्लभे त्वं करुणापूरतरङ्गितैरपाङ्गैः अवलोकय मामकीर्चनानां प्रथमं पात्रमकृत्रिमन्दयायाः स्तुवन्ति ये स्तुतिभिरमूभिरन्वहन् त्रयीमयीं त्रिभुवनमातरं रमां गुणाधिका गुरुतरभाग्यभागिनो भवन्ति ते भुवि बुध भाविताशयाः इति श्रीमच्छङ्कराचार्यविरचितं कनकधारास्तोत्रं सम्